द्वाविंशोऽध्यायः प्रचन् ज्योतिमिषुद्गच्छन्ति प्रतिचन् चस्तं गच्छन्ति उदिच वने स्वादुफला वृक्षा इद्धन्ते सर्वं भुवन् जित्वा सेनान्वितो नृपः प्रत्यगतः शिष्यः कुम्भम् अवागस्थापयत् ह्यः प्रत्यक्षुक्षेत्रेषु बालः पुष्पाण्यचिन्वन् उदक् पश्यतेति राजा सेनं बभाषे प्राचेनृपाय प्रत्यञ्चो देशान् अरोचन्ते प्रक्रामच्छ्रियमण्डिरं स्थितं शिष्यादेवां गुरुं मन्यन्ते